इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। केन्द्रीय गृहमन्त्री अमित शाहः असमराज्ये 1,700,000,000,000,000 मूल्ययुतानाम् अनेकासां विकास परियोजनानाम् उद्घाटनं शिलान्यासं च कृतवान्। जम्मूकश्मीर प्रदेशस्य किश्तवाड़ जनपदे जैश ए मोहम्मद आतंकवादी गुल्मस्य निष्प्रभावीकरणाय सुरक्षाबलैः आतंकवादं विरुध्य सैन्याभियानं तीव्रीकृतम्। पञ्च प्राथमिक क्षेत्रेषु साहमत्यस्य सुदृढीकरणाय नवदिल्ल्यां श्वः भारत अरब देशानां विदेश मन्त्रिणां द्वितीयं सम्मेलनम् आयोजयिष्यते। संयुक्तराष्ट्रसंघस्य प्रमुखः भारत यूरोपीय संघ मुक्त व्यापार साहमत्यं प्राशंसत्। सहैव स्थिर विश्वाय बहुध्रुवीयतायाः समर्थनस्य आवश्यकतायाम् अपि सबलं प्रतिपादितवान्। राष्ट्रपितुः महात्मा गांधिनः 870 याम पुण्यतिथौ कृतज्ञ राष्ट्रेण श्रद्धाञ्जलयः समर्पिताः। अपि च वाशिंगटन नगरे आयोजिते स्क्वेश फायर ओपन प्रतियोगितायां भारतस्य वीरचोत्राणि पञ्च स्पर्धानां रोमाञ्चक द्वन्द्वे फ्रांसदेशीयं क्रीडकं पराजित्य चतुर्थ चरणार्थं समर्हताम् अर्जयत्। अथ वार्ताः विस्तरेण। केन्द्रीय गृहमन्त्री अमित शाहः अद्य असमराज्ये 1,700,000,000,000,000,000 मूल्ययुतानाम् अनेकासां विकास परियोजनानाम् उद्घाटनं कृतवान् तथा च कतिपय परियोजनानां शिलान्यासमपि अकरोत्। डिब्रुगढ़ नगरे जनसभां सम्बोधयन् श्रीशाहः अवदत् यत् भारतस्य यूरोपीय संघस्य च मुक्त व्यापार समन्वयेन यूरोपीय देशेषु असमस्य चायोत्पाद निर्यातस्य वृद्धिः भविष्यति।
असम की चाय की खुशबू पूरी दुनिया में पहुंचती है और भारत के चाय का जायका पूरे दुनिया लेती। यही भूमि ने भारत को एक प्रकार से वैश्विक पहचान दी है और यही के चाय बागान के मेरे श्रमिक साथियों ने भारत के अर्थतंत्र को मजबूत कर एक बहुत बड़ी निर्यात की व्यवस्था देने का काम किया है।
एतासु परियोजनासु मार्ग विकासः आधारभूत संरचना जनोपयोगी सुविधाः क्षेत्रीय विकास सम्बद्धाश्च परियोजनाः अन्तर्भवन्ति। अस्मिन् अवसरे श्रीशाहः अवदत् यत् केन्द्रसर्वकारः पूर्वोत्तर राज्यानां समग्र विकासाय दृढसंकल्पः अस्ति। असमराज्यं च विकासस्य नवं केन्द्रं कर्तुं निरन्तरं प्रयत्नाः क्रियन्ते। एताभिः परियोजनाभिः एकतः जीविकानां नवावसराः सृजिताः भविष्यन्ति, अपरताश्च राज्यस्य अर्थव्यवस्थापि सबली भविष्यति। कार्यक्रमे राज्यसर्वकारस्य वरिष्ठाः अधिकारिणः जनप्रतिनिधयश्च उपस्थिताः आसन्। जम्मूकश्मीर राज्यस्य किश्तवाड़ जनपदे जैश ए मोहम्मद आतंकवादिनां निष्प्रभावीकरणाय सुरक्षाबलैः आतंकवादं विरुध्य अभियानम् अधिकं तीव्रीकृतम्। एतदभियानं दुर्गमेषु संवेदनशीलेषु च स्थलेषु सञ्चाल्यते। सुरक्षाभिकरणानां कथनानुसारेण आतंकवादिनां क्रियाकलापानां विषये गुप्तसूचनां लब्ध्वा अभियानं प्रवर्तितः अस्ति। तस्मिन् क्षेत्रे अतिरिक्तबलानां नियोजनमपि कृतमस्ति। आतंकिनां अन्वेषणार्थम् अभियानं चापि निरन्तरं प्रवर्तते। प्रशासनं स्थानीय नागरिकान् शान्तिसन्धारणार्थं विधिनियमानां पालनार्थं च निवेदनपूर्वकं सुरक्षाबलैः सह सहयोगं कर्तुम् अध्यार्थयत्। तत्रत्या सुरक्षास्थितिः सततं पर्यवेक्ष्यते। भारतरब देशीय विदेश मन्त्रिणाम् ऐषमः द्वितीयं सम्मेलनं नवदिल्ल्यां आयोजयति। अस्य सम्मेलनस्य सह अध्यक्षत्वं भारतदेशेन संयुक्त अरब अमीरात देशेन च सम्भूय क्रियते। अस्मिन् सम्मेलने अरब संघस्य सदस्य देशानां विदेश मन्त्रिणः तथा अरब संघस्य महासचिवः अपि सम्मिल्य भागं ग्रहीष्यन्ति। एतद्धि भारत अरब विदेश मन्त्रिणां प्रथमं सम्मेलनम् अस्ति यद्भि भारतदेशेन नवदिल्ली मध्ये समायोज्यते। अस्य सम्मेलनस्य उद्देश्यः पञ्च प्राथमिक क्षेत्रेषु परस्परं साहमत्यानाम् अधिकं सुदृढीकरणमस्ति। एतेषु प्राथमिक क्षेत्रेषु राजनीतिक सहयोगः, व्यापार निवेशः, ऊर्जा, सांस्कृतिक विनिमयः, क्षेत्रीय वैश्विक विषयेषु समन्वयस्य अन्तर्भवन्ति। विदेशमन्त्रालयस्यानुसारम् एतत् सम्मेलनं भारत अरब देशानां दीर्घकालिक सहयोगाय नवीनां दिशां दर्शयिष्यति, परस्परं विश्वासं च अधिकं सुदृढं करिष्यति। संयुक्तराष्ट्रसंघस्य प्रमुखः भारत यूरोपीय संघयोः प्रस्तावित मुक्त व्यापार साहमत्यस्य प्रशंसां कृतवान्। सः अवदत् यत् एतत् साहमत्यं वैश्विक आर्थिक सहयोग वर्धनाय महत्वपूर्णः पदक्षेपः अस्ति। संयुक्तराष्ट्रप्रमुखः अपि उक्तवान् यत् स्थिरां शान्तिपूर्णां समतुल्यां च विश्वव्यवस्थां प्रवर्तयितुं बहुध्रुवीयतायाः समर्थनम् अत्यावश्यकमस्ति। सः अन्ताराष्ट्रिय समुदायं सहकार्यार्थं संवादार्थं परस्पर सहयोगार्थं च बलं दातुं समाकारितवान्। एतद् वक्तव्यं वैश्विक आर्थिक राजनैतिक स्थैर्यस्य सन्दर्भे महत्वपूर्णं मन्यते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। अद्य राष्ट्रपितुः महात्मा गान्धिनः 870वीं पुण्यतिथौ कृतज्ञराष्ट्रेण तस्मै श्रद्धाञ्जलयः समर्पिताः। राष्ट्रपति, उपराष्ट्रपति, प्रधानमन्त्रिभिः च सहिताः अनेके गणमान्याः राजघट्टे बापू समाधिं गत्वा तस्मै नमो वाकं प्रशास्य श्रद्धाञ्जलिं समार्पयन्। अस्मिन् अवसरे सर्वधर्म प्रार्थना सभा आयोजिता, अहिंसा, सत्य, शान्ति सन्देशश्च स्मारितः। देशस्य विविधेषु भागेषु अपि श्रद्धाञ्जलिकार्यक्रमाः सम्पन्नाः। महात्मा गान्धिनः आदर्शाः अद्यापि देशे, विश्वे च सर्वेषां मार्गदर्शनं कुर्वन्ति। प्रधानमन्त्री श्री नरेन्द्र मोदी महोदयः उक्तवान् यत् भारतस्य यूरोप संघस्य च मध्ये विहितं मुक्त व्यापार साहमत्यं भारतदेशस्य विकसित देशत्वेन प्रवर्तनपथे सम्पूर्णतया अनुरूपम् अस्ति। अत्रावसरे प्रधानमन्त्रिणा वाणिज्योद्योगमन्त्रिणः श्री पीयूष गोयलस्य लिखितं लेखं सामाजिक सञ्जालमाध्यमे विनिमयीकृत्य प्रकाश्यं नीतम्। प्रधानमन्त्रिणा उक्तं यत् अस्माभिः एकः परिवर्तनकरं साहमत्यं विहितं, येन विपण्यः विस्तारः विधीयते, जीविकानां सृजनं विधीयन्ते, देशस्य मूल्यहितानि च संरक्ष्यन्ते। भारतीय निर्यात संघटनस्य महासचिवः श्री अजय सिंह उक्तवान् यत् भारत यूरोपीय संघ मुक्त व्यापार सन्धे देशस्य निर्यातस्य इतिहासे कूषीय पाषाणः जातः अस्ति। एषः सन्धि भारतस्य यूरोपीय संघे निर्याताय आपण प्रवेशं सुनिश्चिनोति। अस्य परिणामेन भारतदेशः लाभं प्राप्स्यति। कर्णाटके कथितस्य मध्य भ्रष्टाचार प्रकरणे भाजपेति दलेन अद्य कांग्रेस पक्षस्य उपरि प्रहारः कृतः। नवदिल्ल्यां वार्ताहर सम्मेलनं सम्बोधयन् भाजपेति दलस्य प्रवक्ता सुधांशु त्रिवेदी अवदत् यत् अयम् आरोपः भाजपेति दलेन विपक्षिदलैः वा न, अपितु राज्यस्य वाइन मर्चेंट एसोसिएशन इत्यनेन आरोपितः अस्ति इति। श्री त्रिवेदिना मैसूर नगर विकास प्राधिकरणेन आवासानां आवंटने अधिक अनियमिततायाः उल्लेखोऽपि कृतः। सः आरोपितवान् यत् यत्र यत्र कांग्रेस दलं शासने अस्ति तत्र तत्र दलं भ्रष्टाचारे संलग्नम् अस्ति, लोककल्याण कार्येषु संलग्नं नास्ति इति। छत्तीसगढ़ राज्ये अद्य सुकमा मण्डले चत्वारः माओवादिनः आत्मसमर्पणं कृतवन्तः। शरणागतानां माओवादिनां मध्ये द्वे महिले स्तः, तेषु 8 लक्षरूप्यकाणां पुरस्कारस्य घोषणा कृता आसीत्। सुकमा जनपद मुख्यालये आयोजिते कार्यक्रमे माओवादिनः शस्त्राणि समर्पितवन्तः, यत्र बस्तर क्षेत्र आरक्षि महानिरीक्षकः सुन्दरराज पी सुकमा, आरक्षि अधीक्षकः किरण चौहानः, अन्येऽपि वरिष्ठ सुरक्षाबलाधिकारिणश्च उपस्थिताः आसन्। आत्मसमर्पणावधौ माओवादिनः एकेन SLR इत्यनेन सह चत्वारि शस्त्राणि आरक्षिकेभ्यः समर्पितवन्तः। एते माओवादिनः मण्डलस्य गोल्लापल्ली, कोण्टा, किष्टाराम इत्येतेषु क्षेत्रेषु सक्रियाः आसन्। भारतस्य उदयोन्मुखः स्क्वैश क्रीडकः वीरचोत्राणि वाशिङ्ग्टन् नगरे आयोजिते स्क्वैश फायर ओपन प्रतियोगितायाम् उत्कृष्टं प्रदर्शनं कृतवान्। सः पञ्चस्पर्धात्मके रोमाञ्चकद्वन्द्वे फ्रांसदेशीयं क्रीडकं मासोत्तीं पराजित्य चतुर्थे चरणे समर्हणीयताम् अवाप्य प्रवेशं कृतवान् इति वार्ताः।